सर्वेषां स्वागतम्. इदानीं वयं वर्गम् आरम्भं कुर्मः. प्रथमं प्रार्थनां कुर्मः. अस्तु. पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्. अस्तु. गतवर्गे गृहपाठः. स्वागतं महोदय. श्रीनिवासमहोदय खलु? श्रीनिवासमहोदय. अस्तु. गतवर्गस्य गृहपाठः तः पर्यन्तम् अभवत् वा? तः पर्यन्तं वादनं वादने विषये. अस्तु. प्रथमं वादनं वादने, वादनतः वादनपर्यन्तम्, अपि च दिनाङ्कः दिनाङ्के, दिनाङ्कतः दिनाङ्कपर्यन्तम् इति विषयः अस्ति. चत्वारि सोपानानि, फोर् स्टेप्स् इति वदामः वयम्. अस्तु. अभ्यासं कुर्मः वा? बीना भगिनी आरम्भं करोति वा?
आं भगिनि. पञ्चवादने अहं निद्रां कृतवती. इदानीं सार्धपञ्चवादनं पूर्वा अस्ति.
नो, एवम् इदानीं सार्धपञ्चवादनम् एव. इदानीं सार्धपञ्चवादनम्
इदानीं सार्धपञ्चवादनम् अस्ति. पादोन षट् वादने अहं स्नानं करिष्यामि.
उत्तमम्. सो यु हेड् पूर्वाह्ने खलु? या, यु केन् से पूर्वाह्ने अथवा प्रातःकाले भगिनि. सारी, अहं सम्यक् न श्रुतवती.
नमस्कारं भगिनि. नमस्कारं भगिनि. परमेश्वरं हियर्.
परमेश्वर महोदय, स्वागतं महोदय.
नमस्कारः भगिनि. सौन्दरं.
सौन्दरं भगिनि, स्वागतं.
नमस्कारः भगिनि. रम्या, अहं रम्या.
रम्या वा? स्वागतं भगिनि.
सो एम् इस् पूर्वा,
पूर्वाह्ने अथवा प्रातःकाले.
ओके, थेङ्क् यु. धन्यवादः.
सो वेन् वि से सार्धपञ्चवादनं, यु केन् से प्रातः सार्धपञ्चवादनं. प्रातः अथवा प्रातःकालः पञ्चवादनं, सार्धपञ्चवादनम् अथवा केवलं सार्धपञ्चवादनं पर्याप्तम्. अस्तु. अस्तु, अग्रे. अम्ब, अम्ब अस्ति वा?
ज्योति भगिनि, ज्योति.
स्वागतं ज्योति भगिनि. अस्तु. गोपिका भगिनी,
आम्. सार्धषड्वादनतः सप्तवादनपर्यन्तम् अहं पूजां करिष्यामि.
उत्तमं. पूजां करिष्यामि. शारदा भगिनी, अनन्तरं सविता भगिनी, अनन्तरम् उमारेड्डि भगिनी. सिद्धा भवतु, गेट् रेडि. अस्तु. शारदा भगिनी,
इदानीं सप्तवादनम् अस्ति. सपादसप्तवादने अहम् अल्पाहारं करिष्यामि.
उत्तमम्, अल्पाहारं करिष्यामि. सविता भगिनी, अनन्तरम् उमारेड्डि भगिनी, अनन्तरम् उमाकृष्णन् भगिनी.
आं भगिनि, पादून अष्टवादन
तः
अतः अष्टवादनतः
अष्टवादनपर्यन्तम्
अष्टवादन पादून अष्टवादनतः अष्टवादनतः पर्यन्तम् अहम् अहं
श्रोष्यामि
पठिष्यामि लिखिष्यामि च
लेखिष्यामि च
लेखिष्यामि च.
उत्तमं भगिनि. अनन्तरम् उमारेड्डि भगिनि खलु.
देन् फिफ्त् वन् मेडम्. अनन्तरं आम्
चलनचित्रम्
अनन्तरं आम् चलनचित्रं पश्यामि.
न भगिनि, प्रथमं समयं वदतु. सार्ध एकवादनतः लैक् दट्
एकवादनतः
भगिनि भगिनि वादनं तः न वादनतः
एकवादनतः वादनतः पादोन
त्रिवादनपर्यन्तं
त्रिवादनपर्यन्तं
आम् अहम् आम् न अहम् अहम्
अहं चलनचित्रं पश्यामि.
पश्यामि पर्याप्तं भगिनि. उमाकृष्णन् भगिनि.
आं भगिनि,
एतत् वदतु.
द सेम् वन् ओके टेक् अ नाप् अनन्तरं अहं त्रिवादने अहं
करिष्यामि करोमि द्वौ अपि समीचीनमेव, परन्तु अत्र त्रीणि वादनं न त्रिवादने. अस्तु भगिनि, आमामाम् त्रिवादने निद्रां करोमि. अस्तु
भगिनि, केन् वि रैट् मध्याह्नं त्रिवादने.
आम् मध्याह्नं त्रिवादने
निद्रां करिष्यामि.
परन्तु टेक्निकलि मध्याह्ने इत्युक्ते नून् एव भगिनि. या यु केन् से देट् आल्सो.
मध्याह्ने
मध्याह्ने त्रिवादने अहं निद्रां करोमि. अस्तु
भगिनि. इफ् ऐ यूस् अपराह्नाः ऐ से अपराह्ने त्रिवादने.
अपराह्ने त्रिवादने.
धन्यवादः भगिनि.
अस्तु भगिनि. सविता भगिनी उक्तवती खलु, शारदा भगिनी उक्तवती खलु. अस्तु अस्तु. केतकि भगिनि.
आं भगिनि,
एतत् एतत् वदतु भगिनि.
ओके भगिनि, केन् ऐ से अनन्तरं.
अनन्तरं
अनन्तरम् अहं वदामि.
न अहं भगिनी, द वर्ड् वदामि, द क्रियापदं शुड् बि द लास्ट् इन् द सेण्टेन्स्.
ओके
पञ्च सो यु से द टैम् अनन्तरम्
अनन्तरं पञ्चवादनतः सप्तवादनपर्यन्तम्
उत्तमम्
अहं मम मित्राणि शैला मैथिली कुमार सह वदामि.
उत्तमं. परन्तु अत्र सप्तवादनपर्यन्तं मकार अस्ति अत्र पर्यन्तम् इति.
सप्तवादनपर्यन्तं
सप्तवादनपर्यन्तं पुनः वदतु.
सप्तवादनपर्यन्तं मम मित्राणि शैला
भगिनि तत्र मम मित्राणि इति न आवश्यकम्. किमर्थम् इत्युक्ते शीला मैथिली कुमार मित्रं वा इति न जानामि. सो अतः अहं पञ्चवादनतः सप्तवादनपर्यन्तं शीलां मैथिलीम् इति वदतु. शीलाम्
अनन्तरं पञ्चवादनतः सप्तवादनपर्यन्तं शैला मैथिली कुमार.
परन्तु अत्र so you have to put m in the end because it is an object kalo, so it becomes dvitiya vibhakti, it becomes an object, so it becomes shilam, like that. Shilam
maithili
permission
taha
कुमारं मित्रं च मित्रं च वदामि. उत्तमं भगिनि. अस्तु. अहं पञ्चवादनतः सप्तवादनपर्यन्तं शीलां मैथिलीं कुमारं मम मित्रं च वदामि अथवा वदिष्यामि. धन्यवादः भगिनि. अस्तु मालती भगिनी, अनन्तरं श्रीनिवासमहोदय.
द डे बिफोर् परश्वः परश्वः द जनवरी दश टेन्त् आफ् जनवरि ओके जनवरी दशदिन
वेरि क्लोस् भगिनि. जनवरी
मासस्य दिनाङ्कः आसीत् अद्य त्रयोदशः अस्ति.
त्रयोदशदिनाङ्कः
अस्ति.
त्रयोदशदिनाङ्कः अस्ति. अस्तु
भगिनि. भगिनि द डे बिफोर् यस्टर्डे वास् प्रपर ह्यः
दट्स् वाट् ऐ वास् गोन् टु टेल्
ओन्ली डे
बिफोर्
करेक्ट्
भगिनि. ह्यः इस् यस्टर्डे परह्यः डे बिफोर् यस्टर्डे डे बिफोर् यस्टर्डे परह्यः प्रपरह्यः जनवरी मासस्य
दशदिनाङ्कः अस्ति. दशमदिनाङ्कः अस्ति.
आसीत् अद्य त्रयोदशदिनाङ्कः दिनाङ्कः अस्ति.
अस्तु
वदतु भगिनि.
भगिनि
एकः प्रश्नः जनवरि मासस्य ऐ केन् से जनवरि दशमदिनाङ्कः आल्सो
यु केन् से जनवरि दशमदिनाङ्कः आल्सो जनवरि मास दशमदिनाङ्कः किमपि So, the only thing, Bhagini, if you put Maasasya, the words are separate. So if you don't put Maasasya, you have to put the words together.
Okay.
January Dashama Dinankaha, like that. Astu. Srinivasa Mahodaya, can you all mute, please?
Aam, Bhagini.
Kripaya mute Kuruvanta Sarve. एकनिमिष महोदय अस्तु श्रीनिवास महोदय अनन्तरं परमेश्वर महोदय श्रीनिवास महोदय
द्वादश सोरि द्वाविंशतितम दिनाङ्कतः
उत्तमम्
एकत्रिंशत् तमदिनाङ्कपर्यन्तम् अहं काशी अयोध्या च गमिष्यामि
गमिष्यामि उत्तमं गमिष्यामि I am going to but if you say in then how will it change Mahodaya
I'm going to be In Kashi
Ayodhya
Chha, okay. Aham Kashi Ayodhya Chha Vasami?
Tishtami.
Tishtami,
okay. Kashi Ayodhya Nagare Tishtami.
Tishtami is future tense?
Stasyami, like that. Stasyami. Or you can say... Tishtami is fine.
Tishtami is fine, okay.
Tishtami is fine. Kashi Ayodhya Nagare Cha Nagare Tishtami.
Tishtami, okay. Good.
Astu. Parameshwar Mahodaya? Vadatu Bhagini?
Can we say Bhavishyami?
Bhavishyami is even better, Bhagini. Bhavishyami. Actually, That is the correct one. Correct one. Bhavishyami.
Thank you.
Bhagini, what is it actually now? Aham Kashim Ayodhyam Cha Bhavishyami or Aham Kashi Ayodhya Nagare?
So Bhagini, you can say it in two ways. Kashi Kashyam. Ayodhya Ayodhyayam. काश्याम् अयोध्यायां च भविष्यामि अथवा काशीनगरे अयोध्यानगरे च भविष्यामि सो नगरम् इफ् यु एड् नगरे
वितौट् एडिङ्ग् नगरं न काशी अयोध्या च तिष्ठामि
You have to put either Nagaram or you change it to Saptami Vibhakti. Kashyam Ayodhyam Cha Bhavishyami.
Kashyam Ayodhyayam. Ayodhyayam.
Ayodhyayam Cha Bhavishyami. Kashyam Ayodhyayam Cha Bhavishyami. Atava Kashi Nagare Ayodhya Nagare Cha Bhavishyami.
Okay.
Uttama. परमेश्वर महोदय अनन्तरं सौन्दरं भगिनी परमेश्वर महोदय
इदानीं चतुर्विंशतिदिनाङ्के
सो महोदय ट्वेण्टि विंशति आरभ्य तम योजनीय
ओके ओके चतुर्विंशतितमदिनाङ्के दशमवादने दशवादने अहं शाप् क्या बोलता है आपणं गच्छामि सोरि आपण
आपणं क्रीणार्थम्
अहं क्रीणार्थम् आपणं गच्छामि
गमिष्यामि गच्छामि
गमिष्यामि
उत्तम उत्तमं महोदय चतुर्विंशतितमदिनाङ्के दशवादने क्रीणार्थम् अहम् आपणं गमिष्यामि अथवा अहम् आपणं क्रीणार्थं गमिष्यामि
Ajay, excuse me, that the first there is a word there, that has to be included also.
Yeah, yeah, you can say tatra. Tatra.
Tatra, okay, okay. Tatra. Thank you.
Uttama Mahodaya. Saundaram Bhagini, Anantaram Ramya Bhagini.
Aapane, Aapane, Darpanaha, Darpane or Darpanaha?
Darpanaha.
दर्पणाः लेखन्याः अङ्कन्यः तालिकाः
पुस्तकानि
पुस्तकानि च भविष्यति
भविष्यन्ति अत्र आपणे दर्पणाः दर्पणः दर्पणाः अङ्कनी अङ्कन्यः स्थालिका स्थालिकाः पुस्तकं पुस्तकानि च भविष्यन्ति
Radhika Bhagini, your voice is echoing actually.
Yeah, I know. I think because of some person. Yeah, now it is not. Aapane darpanah ankanyah stalikah cha stalikah pustakani cha santi na bhavishyanti. Bhavishyanti. There will be iti asti kalu bhavishyanti. Astu. Ramya Bhagini, anantara. अम्ब ओके रम्या भगिनी अनन्तरम् अम्ब अस्तु
टुडे इस् मे 26th अद्य मे षड्विंशतितमदिनाङ्कः
उत्तमम्
नौ इट् इस् 3 PM इदानीं त्रिवादनम् अपराह्नः
अपराह्नः पर्याप्तं भगिनि पर्याप्तम् अत्र अस्तु अम्ब
आन्
भगिनि पर्याप्तम् ऐ लास् सम्बडि अस् अस्तु
भगिनि सोरि भगिनि सोरि तीन् वादने परवाहनं पञ्चदशवादनं केन् वि सिम्प्लि क्लोस् इट् लैक् दट्
पञ्चदशवादनं पर्याप्तं पर्याप्तं
मेकिङ्ग् इट् सिम्प्लर् ओके
या panchadashavadanam is also fine panchadashavadanam is also okay but we generally don't say that mahodaya so I don't say what time is it is 15 o'clock I never say that
okay got it right? Okay
asta amba
july mase ashtadash dinangatah
अष्ट न न अम्ब तत्र तः पर्यन्तं नास्ति तत्र आन् 27th एव
जुलै मासे अष्टदशदिनाङ्कः त्रिविंशत् पर्यन्तं प्रातः नववादनतः सायं पञ्चवादनतः पर्यन्तं अहं कार्यं करिष्यामि
कार्यं करिष्यामि पुनः वदतु
जुलै मासे अष्टदशदिनाङ्कः त्रिविंशत्पर्यन्तं
त्रिविंशतितमदिनाङ्कपर्यन्तं
दिनाङ्कपर्यन्तं प्रातः नववादनः सायं पञ्चवादनपर्यन्तम् अहं कार्यालये कार्यं करिष्यामि
अस्तु उत्तमं जुलै मासे अष्टादशदिनाङ्कतः त्रिविंशतितमदिनाङ्कपर्यन्तं प्रातःकाले नववादनतः सायङ्काले पञ्चवादनपर्यन्तम् अहं कार्यालये कार्यं करिष्यामि. कार्यालये अत्र नास्ति परन्तु कार्यालये कार्यं करिष्यामि अथवा कार्यं करिष्यामि. अट् वर्क् इति अस्ति कार्यालये कार्यं करिष्यामि. उत्तमम् अम्ब. अस्तु भगिनि, हू इस् दिस्? नाम किं भगिनि?
मालति. मालति.
मालति वा? अस्तु. सो वि विल् डू द नेक्स्ट् वन् अण्ड् देन् अण्ड् देन् ऐ विल् टेल् यू भगिनि. भगिनि पृच्छतु.
Can I say aham karmane bhavishyami? I will be at work
karma. Aha. Na bhagini, na aham karyalaye bhavishyami. I will be at work. At work means it's basically office. Okay. Aham karyalaye bhavishyami. Astu. Jyoti bhagini,
hola.
Jyoti bhagini,
भगिनि
वदतु भगिनि. एतत्
ओके. जून् मासे सप्तविंशतितमदिनाङ्के द्विवादने अहं गीतं लिसनर्स् लैक् श्रोष्यामि.
अस्तु, परमेश्वर महोदय एतत् एतत् वाक्यं पुनः वदतु महोदय. अन्म्यूट् करोतु. अस्तु मालति भगिनि, सो द तम वि हाव् टु एड् तम विंशति इति संख्या आरभ्य. ओके, सो अत्र वेन् वि से 18th अष्टादश, सो अत्र अष्टादश दिनाङ्क एव, अष्टादश दिनाङ्क. परन्तु हियर् इट् इस् आफ्टर् 20 खलु, सो त्रयो, सो द त्री विल् बिकम् त्रयो विंशत् तम अण्ड् देन् दिनाङ्क. दट्स् इट् भगिनि.
सो त्रयो विंशत् इस् 23rd, रैट्?
23rd. त्रयो, नो, इट्स् आक्चुलि 23. त्रयो विंशति तम दिनाङ्क. Then it becomes 30th day.
30th, okay.
30th day of July. So that's why we say July Masasya Trayo Vimshat Tama Dinanke. Like that. But here it is Pariyanta.
Okay.
So, yeah.
Still I'm not able to, when to use that Tama. No.
So atra,
okay, I actually in practice then I'll, maybe I'll get it.
No Bhagini, so we can do a couple and then you know you practice on your own. So atra 26th, okay. How will you say 26th?
Shatvimshati.
Shatvimshati, you have to add tama to it.
Oh, okay. Shatvimshati tama.
Shatvimshati tama dinanka. So tama before dinanka, you have to add tama.
Okay.
So how will you say 18th?
Ashtadasha tama dinanka.
No, there is no tama. Only if it is over 20, tama.
Oh, over 20. Okay.
20, अष्टादश इस् नाट् अष्टादश
अष्टादश
अष्टादश दिनाङ्क दिनाङ्कः सो इट् इस् सो बिकास् दिस् इस् पार्ट् आफ् जुलै वि से जुलै मासस्य अष्टादशदिनाङ्क ओ यु से जुलै मास अष्टादशदिनाङ्क अस्तु
ओके थेङ्क् यु
अस्तु वदतु भगिनि
अष्टादशदिनाङ्क
त्रयोविंशति तम रैट् यु केन् से बट् करेक्ट् वन् इस् मासस्य मासस्य इस् करेक्ट्
अष्टादशदिनाङ्क
दिनाङ्क अष्टादशदिनाङ्कतः
त्रयोविंशतितम दिनाङ्कपर्यन्तं कार्यालये कर्म करिष्यति
कार्यालये कार्यं करिष्यामि
कार्यालये
करिष्यामि
ओके धन्यवादः
उत्तमं स्पष्टमस्ति
यस् भगिनि
In the 11th sentence, on June 27th at 2 p.m., we say June Sapta Vimsha...
Vadita, Sapta... Sapta Dinanke...
जून् सप्तविंशति तमदिनाङ्के हौ डु वि से विवादन अपराह्ने और् विवादने अपराह्ने भगिनि
बोत् आर् ओके अपराह्ने द्विवादने द्विवादने अपरा लैक् प्रातःकाले द्विवादने सो अत्र अपराह्ने द्विवादने अहं श्रोष्यामि अहं गीतं श्रोष्यामि जून् मासस्य सप्तविंशतितमदिनाङ्के अपराह्ने द्विवादने अहं गीतं श्रोष्यामि
सो वि केन् यूस् ने ने ट्वैस् अस्तु भगिनि अवगतम् गतवर्गे भवती द्वे द्वयम् इति
अस्तु अहं सिद्धा अस्मि ऐ एम् रेडि टुडे अहं सिद्धा अस्तु अहम् इदानीं वीडियो आन् करोमि अहं वक्तुमिच्छामि अस्तु अस्तु अत्र एकः चमसः एकः चमसः इति पुल्लिङ्गपदम् अतः एकः चमसः एकः हस्तः अथवा अत्र अत्र प्रदर्शयामि एकः हस्तः अस्ति एकः एकः चमसः एकः दन्तकूर्चः
सोरि गोपिका श्रीवत्सन बेनी हेस् टु गो टु म्यूट् युवर् स्क्रीन् इस् कमिङ्ग् वेरि स्माल् वि आर् नाट् एबल् टु सी यु क्लियर्ली
ओके Oh, you cannot see me clearly?
Bhagini, we cannot see you clearly. The one which you are showing, we can't. We are not able to see that.
He is talking, okay, their names come, their screen comes.
Okay, how do I fix this? Na janami.
I can see you, Bhagini.
I can see you.
But ah, I can see you. I can see your face, Bagini. Everything is visible only.
Yeah. I can see you, Bagini, too.
No, no, no. What she is showing, the, whatever the thing she is showing, we are not able to see that.
Is it very Bagini? Small? No. She's thinking it's very small. Is it very small, my face?
Bagini, I can see your full screen. I just
see you. I can see you. Whatever you are showing, we can see.
In a corner in a small way. You should be in the center screen, which is not there.
No, but if you click on her video, maybe you can see her on the full screen. I did it. I am able to see her on full screen.
Let me try that, okay? No, not
because yet. I could see her, yeah.
Yeah, Bagini.
Yes, I can see her on her thing.
Doesn't matter. Go ahead. Okay, now it is fine.
Yeah. Okay. Yeah, I also clicked on my video. Now I can see full screen. धन्यवादः. अस्तु. इदानीम् एकः दन्तकूर्चः. किमर्थम् एकः? लिङ्गभेदः अस्ति. एक इति संख्यातः चत्वारि इति संख्यापर्यन्तं लिङ्गभेदः अस्ति. अतः दन्तकूर्चः एकः. एकः दन्तकूर्चः. हस्तः एकः. हस्तः. चमसः एकः. चमसः. अवगतम्? एकः चमसः. एकः हस्तः. एकः दन्तकूर्चः. अस्तु. द्वे इति संख्या अस्ति चेत् द्वे इति नपुंसकलिङ्गपदम्. अतः पुल्लिङ्गवस्तु अस्ति चेत् पुल्लिङ्गवस्तु इत्युक्ते तिङ् पुल्लिङ्गवस्तु अस्ति चेत् द्वे इति न आगच्छति. एवमेव त्रीणि चत्वारि अपि नपुंसकलिङ्गपदानि एव. अतः पुल्लिङ्गे स्त्रीलिङ्गे त्रीणि चत्वारि इति न आगच्छति. अतः भ्रमः भवति, कन्फ्यूशन् भवति. अतः सर्वत्र द्वयं त्रयं चतुष्टयम् इति योजयामः. उदाहरणार्थम् अत्र चषकः. एकः चषकः. चषकद्वयं. चषकद्वयं. चषकद्वयम्. इदानीम् एकः हस्तः. एकः हस्तः. हस्तद्वयम्. एकः हस्तः. हस्तद्वयम्. एकः चमसः. चमसद्वयम्. चमसद्वयम् इति त्रयं कथमिति पश्यामः. एकः चमसः. चमसद्वयं. चमसत्रयं. चमसत्रयम्. एवमेव हस्तः. एकः हस्तः. हस्तद्वयं. हस्तत्रयम्. एवमेव दन्तकूर्चः इति अस्ति चेत् दन्तः. एकः दन्तकूर्चः. दन्तकूर्चद्वयं. दन्तकूर्चत्रयम्. अस्तु. पुनरेकं योजयामः चेत् दन्तकूर्चचतुष्टयम्. चतुष्टयम्. दन्तकूर्चचतुष्टयम्. इदानीं वदन्तु. एकः चमसः.
चमसः.
चमस.
चमस.
चतुष्टयम्. चमस चतुष्टयम्. एकः हस्तः.
हस्तद्वयं
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 हस्तत्रयं
हस्तचतुष्टयं
हस्तचतुष्टयं
अत्र हस्तः न
हस्ता
मूलरूपं किं तदेव मूलरूपमेव अस्तु ऐ एम् गेटिङ्ग् लाट् आफ़् एको म्यूट् अस्तु एवमेव इत्युक्ते सिमिलर्लि कन्दुकम् एकं कन्दुकम् एकं कन्दुकम् एकं कन्दुकम्
कन्दुकद्वयं
कन्दुकद्वयम्
उत्तमं
कन्दुकत्रयं कन्दुकत्रयं कन्दुक चतुष्टयं कन्दुकचतुष्टयं अनन्तरं पञ्चकन्दुकानि सन्ति एकं कन्दुकम् अस्ति I'm getting echo, I don't know. Okay, I'm going to mute you, Bhagini. Astu. Ekam kandukam asti. Kanduka dvayam asti. Kanduka trayam asti. Kanduka chatushtayam asti. Asti eva, sarvatra asti eva. परन्तु पञ्च आरभ्य सन्ति पञ्चकन्दुकानि सन्ति एवमेव एकः दन्तकूर्चः अस्ति दन्तकूर्चद्वयम् अस्ति अस्ति दन्तकूर्चत्रयम् अस्ति दन्तकूर्चचतुष्टयम् अस्ति अस्ति पञ्चदन्तकूर्चाः सन्ति
सन्ति
सन्ति पञ्च आरभ्य बहुवचनरूपं पञ्चदन्तकूर्चाः सन्ति चतुष्टयम् अस्ति त्रयम् अस्ति द्वयम् अस्ति एकः एका एकम् अपि अस्ति एव अस्तु इदानीं स्थालिका एका स्थालिका अस्ति एका स्थालिका स्थालिका द्वयम् अस्ति
द्वयम् अस्ति
द्वयम् अस्ति स्थालिका त्रयम्
अस्ति
अस्ति स्थालिका
चतुष्टयम्
अस्ति अस्ति पञ्च
स्थालिकाः
सन्ति सन्ति उत्तमं पञ्चस्थालिकाः सन्ति
सन्ति
द्वयं त्रयं चतुष्टयं क्यान् गो विदौट् एनी लिङ्गभेदम्
सो इट् बिकम्स् ईज़ी एकम् एकं लिङ्गभेदम् अस्ति एकः एका एकं तत्र लिङ्गभेदः अस्ति एवमेव पुस्तकम् इति अस्ति चेत् एकं पुस्तकम्
एकं पुस्तकम् अस्ति
अस्ति
पुस्तकद्वयम् अस्ति पुस्तकत्रयम्
अस्ति
पुस्तकचतुष्टयम् अस्ति
पञ्चपुस्तकानि
सन्ति
सन्ति सन्ति पञ्चपुस्तकानि सन्ति उत्तमम् इदानीम् अहं लेखनी अङ्कनीं पश्यामि कुत्र अस्तु अस्तु वदतु.
एका लेखनी अस्ति.
एका अङ्कनी
अस्ति.
अङ्कनी
द्वयम्
अस्ति.
अङ्कन्यः सन्ति. तावदेव भगिनि लिङ्गभेदः.
बहु धन्यवादः भगिनि.
अवगतं वा? अस्तु, उत्तमं. सो अत्र अभ्यास ऐ एम् क्लोसिङ्ग् मै वीडियो न. अस्तु, पुस्तके अस्ति लिङ्ग अस्ति. एकः, एका, एकं, तत् वयं जानीमः. एकः बालकः, एका बालिका, एकं फलं. बालकद्वयं, बालिकाद्वयं, फलद्वयं. परन्तु एतत् सर्वं मास्तु. त्रयः, तिस्रः, त्रीणि. बहु भ्रमः जातः. इट् बिकम्स् वेरि कन्फ्यूसिङ्ग्. त्रयः एतत् मास्तु. चत्वारः, चतस्रः, चत्वारि, एतदपि मास्तु. चतुष्टयम् इति अत्र लिखामः. त्रयम्, एकनिमिषम् अहं लिखामि. त्रयम्, चतुष्टयम्, चतुष्टयं पर्याप्तं. त्रयं, चतुष्टयम्. अवगतं वा? अस्तु. सो अत्र अत्रापि किं वदामः अत्र?
शुनकं,
एकं युतकम्, उत्तमम्. एकं चतुष्टयं, शुनकः न, शुनकचतुष्टयम्. सो यु पुट् द वर्ड्स्, शुनकचतुष्टयम्. अत्र अत्र बालकद्वयम्. ओके, देर् इस् नो गेप्.
Okay.
The words are together. Balakadvayam, Balikadvayam, Paladvayam. Evameva, when we say Julai Masasya Panchama Dinanke, so we say Julai Masa Panch, so without a gap, you can say it. Gap asti chet, you have to put the proper ending, like Trayaha, Tisraha, like that. Astu. Astu. Atra, Shunaka, चतुष्टयं. पिपीलिका,
पिपीलिका
त्रयं, पिपीलिका त्रयम्, उत्तमम्. अत्र पञ्च,
पञ्च
गजाः
सन्ति,
सन्ति, उत्तमं. पञ्चगजाः सन्ति. शुनकचतुष्टयम् अस्ति. So it is basically a set of two, a set of three, like that, a set of four. So it is only one set, kalo, a set like that. Simha,
Simha dvayam asti.
Dvayam asti.
Asti. Atra?
Eka,
dhenuhu
asti.
Eka, dhenuhu strilingam. Atra, atra pashyant. एका
धेनुः, धेनु अस्ति,
धेनुः अस्ति.
We got used to the model. If there is a visargam, then it is a pullingam. So we got into that.
Aam.
So because the dhenu visargam is there, so that's where the confusion started.
Aam. Satyam Mahodaya. See, so that's why we don't introduce ikara, ukara at this stage. Okay, why unnecessary confusion? Not necessary in this stage, not necessary. Next stage we can confuse a lot, no problem.
Is it actually denu or
denuhu?
Denuhu.
Denuhu. If there is a visarga, you have to pronounce it visarga.
Okay.
धेनुः अत्र मक्षिका
मक्षिका
द्वयम् अस्ति
अस्ति अस्तु अहम् अग्रे अग्रे गच्छामि सो वि गाट् द हेङ्ग् आफ़् इट् खलु सो अग्रे गच्छामि अस्तु एतत् वयं पठितवन्तः खलु हस्तेन सीवनयन्त्रं सीवनयन्त्रेण लोकयानं लोकयानेन स्यूतः स्यूतेन द्विचक्रिका कथं वदामः कया इस् नाट् काया कया कुञ्चिका कर्तर्या अस्तु अग्रे अग्रे गच्छामि ओके ऐ एम् गेटिङ्ग् लाट् आफ़् एको अस्तु अत्र अहम् एकं साधनं स्वीकृत्य एकं साधनम् उपयुज्य उपयोगं करोमि उपयोगं कृत्वा अहम् एकं कार्यं करोमि अहं वस्त्रं कर्तयामि कर्तरी अत्र अस्ति अहं कर्तर्या वस्त्रं कर्तयामि अहं कथं वस्त्रं कर्तयामि अहं कर्तर्या वस्त्रं कर्तयामि कथम् इति प्रश्नः अहं चित्रं लिखामि अहं कथं चित्रं लिखामि अङ्कन्या लिखामि अथवा अङ्कनीम् उपयुज्य उपयोगं करोमि अनन्तरं चित्रं लिखामि अहम् अङ्कन्या चित्रं लिखामि अतः प्रश्नद्वयम् अस्ति एकमस्ति कथं लिखति अहं लेखन्या लिखामि अङ्कन्या लिखामि अथवा कया अत्र स्त्रीलिङ्गमस्ति खलु अहम् अङ्कन्या लिखामि अतः प्रश्नः अस्ति कया लिखति इत्युक्ते वाट् आर् यु यूसिङ्ग् टु रैट् इट् अहं जानामि स्त्रीलिङ्गम् इति स्त्रीलिङ्गम् इति अहं जानामि चेत् कया लिखति अहम् अङ्कन्या लिखामि अत्र अहं जानामि कर्तरी अस्ति कर्तरीम् उपयुज्य अहं वस्त्रं कर्तयामि अतः प्रश्नः अस्ति कया कर्तयति अहं कर्तर्या कर्तयामि अत्र पुल्लिङ्गम् अस्ति स्यूतः अहं स्यूतेन वस्तूनि आनयामि अहं स्यूतेन वस्तूनि आनयामि सो एकं प्रश्नः अस्ति भवती कथं वस्तूनि आनयति अहं स्यूतेन वस्तूनि आनयामि सो अत्र यदि जानाति चेत् पुल्लिङ्गपदम् अस्ति पुल्लिङ्गपदम् अस्ति वस्तुः स्यूतः वस्तु इति नपुंसकलिङ्गपदं क्षम्यतां स्यूतः स्यूतम् उपयुज्य वस्तूनि आनयति इति जानाति चेत् केन वस्तूनि आनयति इति प्रश्नः अस्ति केन वस्तूनि आनयति स्यूतेन वस्तूनि आनयामि स्यूतेन वस्तूनि आनयामि अस्तु अवगतं वा केन कया प्रश्नद्वयं केन कया अथवा कथं वस्तूनि आनयति स्यूतेन आनयामि केन वस्तूनि आनयति स्यूतेन वस्तूनि आनयामि केन अत्र कया भवती कया पाठशालां गच्छति अहं द्विचक्रिकया गच्छामि. कया स्त्रीलिङ्ग स्त्रीलिङ्ग साधनम् अस्ति चेत् साधयामि. अहं विद्यालयं गच्छामि. कथं साधयति? द्विचक्रिकया साधयामि. सो अत्र साधनं द्विचक्रिका इति अस्ति. ऐ एम् यूसिङ्ग् द्विचक्रिका. द्विचक्रिका स्त्रीलिङ्गपदं. कया विद्यालयं गच्छति? द्विचक्रिकया विद्यालयं गच्छामि. पृच्छतु महोदय.
Question is the lingam of the sadhanam or lingam of the person using it? Balaka, Vichakrika, Balika, Balakaha, Balika.
No, lingam of the sadhanam. Lingam of the sadhanam.
Of the sadhanam, not the user.
Not the user. Okay. So, atra syutaha kena lokayanam. How will it, what's the question be? Lokayanam. केन सीवनयन्त्रं हस्तः केन कुञ्चिकाया कुञ्चिका कया कया उत्तमं. दूरवाणी
कया
दूरवाण्या उत्तमम्. अङ्कनी अङ्कन्या इति अस्ति. सो अत्र यूसिङ्ग् दट् नालेज् ऐ एम् गोयिङ्ग् टु म्यूट् अगेन् ऐ एम् गेटिङ्ग् एको. प्रतिध्वनिः आगच्छति. एको इत्युक्ते प्रति अस्तु. अत्र पुत्रेण इति अस्ति. एकनिमिषम् अस्तु. अत्र पुत्रेण सह आपणं गच्छति. प्रश्नः अस्ति केन सह सः आपणं गच्छति. केन सह पुत्रेण सह केन सह सः आपणं गच्छति. सः केन सह अवगतं. केन सह आपणं गच्छति. पुत्रेण सह आपणं गच्छति. अत्र सा सख्या सह विद्यालयं गच्छति. सख्या सह मूलरूपं कया सह विद्यालयं गच्छति. सख्या इति अस्ति चेत् मूलरूपं किं?
सखी.
सखी सखी बिकेम् सह. कया सह विद्यालयं गच्छति? सख्या सह विद्यालयं गच्छति. अस्तु. रामः रावणः एतद् भवन्तः गृहपाठरूपेण कुर्वन्तु. अत्र निश्चयेन भगिनि पृच्छतु.
So why can't you say aham hastena saha khadami? You're not using saha there, but you're using it with
uttamah prashnah bhagini. Uttamah prashnah. So atra atra pashyata saha putrena saha aapanam gacchati. Putrah kena saha aapanam gacchati.
पुत्रः वित् मी पिता पुत्र
जनकेन सह जनकः जनकेन सह जनकेन सह आपणं गच्छति. जनकः पुत्रेण सह आपणं गच्छति. पुत्रः जनकेन सह आपणं गच्छति. सो अत्र पुत्र केन् गो बै हिम्सेल्फ. The Janakaha can go by himself. They are going together.
Yeah.
Janakaha putrena saha aapanam gacchati. Putraha janakena saha aapanam gacchati. So if you come to the hastaha example. Bahila hastena saha kadati. Iti asti chet. Hastaha swayam na kadati kalo.
Okay.
Thank you.
So that is it. No, Uttamaha Prashnaha Bhagini. I was going to explain that. You just, it was a very good segue.
Thank you.
So, atra, we cannot use saha. Kim ityukte ankani swayam na likati kalo. Balakaha ankani upayujya likati. So, atra balakaha ankanya likati. So, atra we can go both ways. Viparida dishi api vaktum shaknumaha. Ravanaha, ravanena saha yuddham kritavan. Ravanaha, ramena saha yuddham kritavan. Avagatam? Astu. Lakshmanaha, ramaha. Lakshmanaha,
ramena saha, saha vana.
Vanam gatavan.
Ramaha, Lakshmanena saha, vanam gatavan.
Lakshmanena saha, vanam gatavan.
Vanam gatavan.
Gatavan. Uttamam. Astu. Atra. Danyavada bhagini. So atra, I just want to point out a few things. Okay. Aham anantaram likami. Aham likitva preshayami. Parantu atra. Atra, for aham, we can say maya.
Maya.
Maya. Aham mitrena saha natakam pashyami. Mitram maya saha natakam pashyati. Atra pashyati agachati. Pashyati. Pashyati. Aham mitrena saha natakam pashyami. Mitrena saha. Aham mitrena saha natakam pashyami. Mitram maya saha natakam pashyati.
Okay.
Maya saha. Okay.
Okay.
I will say another word. I eat with my son. Katam vadami aham.
Aham.
Putra saha.
Mama putra saha. Putra saha.
Putrena saha.
Putrena saha. Watch the ending. Okay. Ending tells the whole story. Putrena saha.
Bhojanam
karomi. Putrena saha bhojanam karomi. Khadami. How will we say the other way from the putra side?
Putra maya saha bhojanam
karoti.
Karoti. Putraha. Okay, watch the ending. Putraha maya saha. So visarga is important. Putraha maya saha.
How we ask prashna,
Bhagini?
How we ask prashna?
Aham kena saha bhojanam karomi? Putrena saha. So if I say aham, somebody will have to ask me, kalo. Somebody will ask me. Bhavati kena saha bhojanam karoti? Whether it is strilingam or pullingam, they don't know. Whether I am having with my aham putrena saha kadamiva, putriya saha kadamiva iti tena jananti. Ataha kena saha eva prichati.
Kena saha.
Kena saha. So the default is always male. Krishna vishaye.
And for the lady kaya saha.
Kaya saha. I am eating with my daughter. How will I say that?
Aham
mama putraya saha.
Putraya
saha. Bhojanam karomi.
Karomi. Uttamam. Putriya saha bhojanam karomi.
Bhojanam karomi.
Karomi.
Napumsakalingam.
So this is napumsakalingam. Mitram is napumsakalingam. Mitrena.
Nana. Saha kaha प्रश्न पूछ
सो तत्र प्रश्नः अपि केन एव पुल्लिङ्ग नपुंसकलिङ्ग केन उदाहरणार्थं ऐ एम् हेविङ्ग् फुड् वित् मै फ्रेण्ड् मित्रं भवती केन सह भोजनं करोति अहं मम मित्रेण सह भोजनं करोमि करोमि धन्यवादः भगिनि
If it is Sureshah, aham Sureshah saha.
Sureshena saha. Okay, Sureshena saha.
Okay. And the question will be Kena saha.
Kena saha. Kena saha kadate. Supposing I'm having with my daughter, nobody knows. The question will be, Bhavati Kena saha kadate.
Okay. But if you know it's a female,
you can say Kaya Saha. Yeah, if you know it's a female, Bhavati Kaya Saha Khadati, Aham Mama Putriya Saha Khadami. Mama Putriya Saha Khadami.
Dhanyavada.
So, Atra, Putri Iti Asti Kalo, so we write this way. Sorry. Ek Anamshu. So instead of Mata, we'll make it Amba. So how will we say Amba?
Putriya
Karyam Karoti.
And if I ask Prashna, Amba Kena Saha Karyam Karoti?
Yeah, if you don't know, she's doing with the Putri. If you know she's doing with the Putri, then?
Kaya Saha
Karyam Karoti. Amba Kaya Saha Karyam Karoti. Amba Putriya Saha Karyam Karoti.
And it will also be Ambiya.
Ambaya.
Ambaya. The boy is still there.
Ambaya.
Ambaya, okay. Oh, Putri is Ikaranta. That is
why. Ikaranta. Ambaya.
Amba is Akaranta, okay.
Amba, Ambaya. Sita, Sitaya.
So the long A will become Hraswa.
Ambagini. So, एतत् कथं वदामः एषा प्रश्नः कः एषा कया सह तिष्ठति एषा कया सह तिष्ठति एषा सह तिष्ठति सीतया सह तिष्ठति सो विपरीतदिशि दि आपोजिट् डैरेक्षन् विपरीतदिशि हौ विल् वि से सो एषा विल् बिकम्
एतया
सो हौ विल् वि आस्क् द क्वश्चन् सीता
सीता एतया सीता एतया तिष्ठति
Question is Kaya Saha, correct. Sita Kaya Saha Tishtati. Sita Uttaram Sita Etaya Saha Tishtati. Etaya Saha Tishtati. Sarvanama Padam Uttamam Pronam Sarvanama Padam. Okay, Astu Etat Karottu Sureshaha Bhagini Prashnaha Pratama. सुरेशः
कया सह सम्भाषणं
करोति उत्तमं सुरेशः कया सह सम्भाषणं करोति
सुरेशः
सम्भाषणं करोति उत्तमं भगिन्या सह स्त्रीलिङ्गं खलु भगिन्या कर्तरी कर्तर्या लेखनी लेखन्या मैथिली मैथिल्या मैथिल्या सह भगिन्या सह सम्भाषणं करोति विपरीतदिशि भगिनी एतत् एतत् उत्तरं प्रश्नः कः
भगिनी
केन केन सह सम्भाषणं करोति अस्तु उपरि पश्यामि अत्र सः इति अस्ति सः सो दिस् विल् बिकम् तेन तेन सः केन सह आपणं गच्छति सः पुत्रेण सह आपणं गच्छति पुत्रः पुत्रः प्रश्नः प्रश्नः कः पुत्रः
केन
सह आपणं गच्छति पुत्रः तेन सह तेन सह आपणं गच्छति सा इति अस्ति तेन सह इति केन सह इति क्वश्चन् केन एकनिमिषम् केन अथवा कया विल् बि द क्वश्चन् केन अथवा कया सह सो अत्र सा सख्या सह विद्यालयं गच्छति प्रश्नः कः उत्तरं किम् सखी स्त्रीलिङ्गं खलु सख्या इति अस्ति सख्या अतः कया एव सो इफ् यु लुक् अट् दि आन्सर् युल् गेट् अ क्वश्चन् इफ् यु लुक् अट् अ क्वश्चन् युल् गेट् दि आन्सर्
Bhagini, what is the thing for the pronoun sa? For some of you said kena.
Idanim badami. Yeah, idanim badami. Sa sakya saha, sa kaya saha vidyalayam gacchati. Sa sakya saha vidyalayam gacchati. Idanim viparida dishi. Vadato viparida dishi. The opposite direction. Viparida dishi.
Sakhi.
Sakhi.
Kaya.
बिकास् इट् इस् सा खलु कया सह विद्यालयं गच्छति एण्ड् एण्ड् दि आन्सर् विल् बि सोरि तया सह इफ् इट् इस् फार् इट् इस् तया एण्ड् तेन If it is nearby, etaya, eta, etaya. If it is eshaha, it is etena. I mean, I'm sorry, if it, yeah, correct, etena.
Etena, etaya.
Etena, etaya. If they are far, taya, tena. Tena saha, taya saha. Okay, another thing I want to say is bhavan. Bhavan is not here, but we will use it, right? Can I come with you to the temple? Bhavata. So for Bhavan, it will become Bhavata. Mandiram.
Yeah. Gacchami va.
Gacchami va. Bhavata sah. सम्भाषणं करोमि भवता सह कार्यं करोमि भवता सह सो अत्र बहुवचनम् अस्ति तत् मास्तु इति अहं चिन्तयामि ऐ एम् थिङ्किङ्ग्
भवान् पुल्लिङ्गं सेम् थिङ्ग् स्त्रीलिङ्गं वाट् हेपन्स्
भवति वाट् यु थिङ्क् विल् बि भवति
भवत्या सह
भवत्या सह उत्तमं भवत्या सह भवत्या सह सो अत्र बहुवचनं मास्तु इति अहं चिन्तयामि ऐम् थिङ्किङ्ग् वि डोण्ट् नीड् टु काम्प्लिकेट् बै यूसिङ्ग् बहुवचनं बट् इफ् यु वाण्ट् टु इट्स् ओन्लि फोर् मोर् वर्ड्स् छात्राः बिकम् छात्रैः
लैक् रामैः
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 रामैः सो अध्यापकः छात्रैः सह छात्रेण सह छात्रैः सह प्रवासार्थं गतवान् अध्यापकः गतवान् सो वाट् विल् बी द क्वश्चन् छात्रैः सह
अध्यापकः
केन एस् एकवचनं छात्रैः सह कैः सह प्रवासार्थं गतवान् छात्रैः सह एवमेव सखी इस् एकवचनं सख्यः बहुवचनं सो वि हेव् सखीभिः सो अहं चिन्तयामि बहुवचनं मास्तु इति अस्तु अहं पुनः प्रतिध्वनिः आगच्छति अस्तु सो अहं चिन्तयामि एतत् मास्तु इति बहुवचनं मास्तु इति अहं चिन्तयामि
भगिनि
वदतु
वाट् इस् द क्वश्चन् फार् भवान् भवति
नो या सो फार् भवान् इट् विल् बि केन सह भवति सम्भाषणं करोति अहं भवता सह एव सम्भाषणं करोमि लैक् फार् एक्साम्पल् इफ् दट् पर्सन् इस् नाट् लिस्निङ्ग् टु यु सो ऐ सेङ्ग् हू आर् यु टाकिङ्ग् टु ऐ एम् टाकिङ्ग् टु यु अहं भवता सह एव सम्भाषणं करोमि शृणोतु भवत्या सह ओके सो दर् इस् नो सो दिस् इस् वाट् ऐ एम् थिङ्किङ्ग् बट् ऐ विल् गिव् यु होम्वर्क् यूसिङ्ग् दीस् आल्सो इफ् यु वाण्ट् टु बिकास् इट् इस् इट्
can you give for pronouns like I'm getting
nischayena
exercises here I think
nischayena so pullinga padam aihi chatraihi strilingam abihi supposing it is chatras strilinga chatra how will it be adhyapakah छात्राभिः सह प्रवासार्थं गतवान् अस्तु लता सखीभिः सह क्रीडति बहुवचनं सखीभिः सह क्रीडति अवगता अस्तु I want to cover one more amsha, okay? I am going to mute again. Aham punaha mute karo. Okay? So, atra vina saha iti aham militva gachami. Aham mama mitrena saha gachami. Aham gachami mama mitram api gachati. Aham मित्रं च गच्छावः सो अहं मित्रेण सह गच्छामि अत्र विना इत्युक्ते अहं जलं विना अस्तु भगिनि
वितौट्
जलम् आम् 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 अहं जलं
विना वायु वायुवे वायु वायुनेन
वायुना विना
विना
वायुना एकनिमिषं भगिनि गुरु गुरुना अस्तु अत्र द्वितीया विभक्ति उपयुज्य वयं विना अपि योजयितुं शक्नुमः उदाहरणार्थं हौ केन् यु कट् विदौट् सिजर्स् अहं कर्तर्या विना न कर्तयितुं शक्नोमि न कर्तयामि अहं कर्तर्या विना न शक् न कर्तयामि जलं विना मीनः न जीवति जलेन विना मीनः न जीवति आहारं विना अहं न जीवामि आहारेण विना द्वितीया विभक्ति तृतीया विभक्ति बोथ् केन् बि यूस्ड् आहारेण विना न जीवामि आहारं विना न जीवामि मम जङ्गमदूरवाण्या विना अहं न जीवामि मम जङ्गमदूरवाणीं विना अहं न जीवामि संस्कृतं विना अहं न वदामि संस्कृतेन विना अहं न वदामि अवगच्छति वा अस्तु एन सो वि केन् यूस् द्वितीया तृतीया विना उपयोगं कुर्मः चेत् वायुना विना वायुना विना बिकास् वायुः उकारान्तपदं भगिनि दट्स् वै उकारान्तपदम् इट् हेस् अ डिफ्रेण्ट् एण्डिङ्ग् उकारान्तपदं सेम् थिङ्ग् वित् इकारान्त इकारान्त हरिणा विना हरिणा हरिणा विना लैक् वि से विदौट् हरि दट् इस् द गाड् हरि I cannot be. Harina vina. Ekakshanam api aham na jivami. Harina vina.
So Vayu is Ukara Stree Lingam.
Pullinga. 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 Vayu. Vayu na vina. Kattarya vina. Kattarim vina. एकमेकं वदति वा वाक्यं सः अथवा विना उपयुज्य सः अथवा विना उपयुज्य बीना भगिनी सः अथवा विना
अहं पुस्तकेन विना विना न पठामि
न पठामि पुस्तकेन विना न पठामि उत्तमं गोपिका भगिनी अस्तु अस्तु अत्र स्क्रीन् अस्तु अस्तु वदतु नो बिकास् भगिनी ऐ वाण्ट् टु लुक् अट् द नेम्स् खलु दट्स् वै अस्तु गोपिका
भगिनी
सो द अदर् पीपल् प्लीस् गेट् रेडि गोपिका भगिनी
अहं जलं विना जलं विना जीवनं न भवति
जलं विना जीवनं न भवति उत्तमं सविता भगिनी
भविष्यति
भवति एव उत्तमं सविता भगिनी
आं भगिनि मातुः विना शिशुः न जीवति
अम्बां विना अथवा अम्बया विना
अम्बया विना शिशुः शिशुः न
जीवति उत्तमं कठिनं कठिनं खलु बहु कठिनं बहु कठिनं शारदा भगिनी
सूर्येण विना जीवनं न भविष्यति.
जीवनं नास्ति खलु, सूर्येण विना जीवनं न न भवति, भविष्यति, भवति, अस्ति. अस्तु, उमा रेड्डी भगिनी.
वायुः विना, वायुः विना विना विना
वायुना विना वायुं विना
जीवनं कठिनम्.
जीवनं कठिनम्, उत्तमम्. उमाकृष्णन् भगिनी.
हौ डु यु से फर् रेन्?
वृष्टिः, वृष्टिः,
वृष्टिः.
सो यु केन् से वृष्टिं विना.
वृष्टिं विना जलं,
जलं, जलं नास्ति. वृष्टिं विना जलं नास्ति, जलं न आगच्छति. केतकी भगिनी. वदतु, वाक्यं वदतु विना अथवा सह इति उपयुज्य. सूर्येण विना प्रकाशः नास्ति, उत्तमम्, उत्तमवाक्यम्. मालति भगिनी, मालति भगिनी.
ओके, जलं विना मत्स्यं न जीवन्ति.
मत्स्याः न जीवन्ति, जीवन्ति, उत्तमं. मत्स्याः न जीवन्ति. श्रीनिवास महोदय.
लेट् मी टेक् समथिङ्ग् मोर् प्राक्टिकल्. काफी बाणेन विना जीवनं कठिनम्.
बहु सुलभं महोदय. अहं काफी किमपि न कदापि न पिबामि. काफीपानेन, काफीपानेन विना जीवनं कठिनम्, उत्तमम्. अस्तु, रम्या भगिनी.
दुर्लभं, दुर्लभं.
भगिनी, गुरुं विना अहं संस्कृतं न पठामि.
गुरुं विना संस्कृतं न
पठामि.
उत्तम, उत्तम, उत्तमवाक्यं. ज्योति भगिनी.
अम्बा विना अहं चलनचित्रं न प्रेषयामि.
सो अत्र अम्बा इति प्रथमा विभक्ति खलु.
या या, अम्बा, अम्बाया,
अम्बया,
अम्बया, ओके, या अम्बया विना अहं चलनचित्रं न प्रेषयामि.
पश्यामि,
सोरि,
पश्यामि. सो अम्बया विना अथवा अम्बां विना, द्वौ अपि समीचीनं. द्वितीया, अम्बां विना अथवा अम्बया विना, उत्तमं भगिनि. अम्ब,
धन्यवादः.
अम्ब.
धनं विना जीवनं बहु कष्टम्.
धनं विना जीवनं बहु कष्टम्, उत्तमं. सत्यमेव, सत्यवाक्यम्. उषा भगिनी.
वाहनेन विना चरितुं न शक्नोमि.
वाहनेन विना कुत्रापि गन्तुं न शक्नोमि, चलितुं न शक्नोमि, उत्तमम्. चरितुं वा, चरितुम् अपि उत्तमम्.
चरितुं रोमिङ्ग्,
रोमिङ्ग्, या चरितुं, चलितुं, गन्तुं, किमपि भगिनि, उत्तममेव. सौन्दरं भगिनि. सौन्दरं भगिनि.
भगिनि, केन् वी से चन्द्रं विना पूर्णिमा नास्ति?
चन्द्रं विना पूर्णिमा नास्ति, पूर्णिमा नास्ति. अस्तु, सौन्दरं भगिनि.
चषकः विना,
चषकम् अथवा चषकेन, चषकम् अथवा चषकेन,
चषकेन विना जलं न पिबामि.
चषकेन विना जलं न पिबामि, उत्तमं भगिनि. उत्तमं,
चषकं विना जलं न पिबामि.
चषकं विना जलं न पिबामि. उपनेत्रं विना अहं न पश्यामि. उपनेत्रेण विना, उत्तमं. बहु प्रश्नाः सन्ति वा? अद्यतनविषये अद्यतनविषयः लिङ्गभेदः एकतः चत्वारि पर्यन्तं लिङ्गभेदः इति एकविषयम् अनन्तरं सः विना इति विस्तरेण दृष्टवन्तः अद्य प्रश्नाः सन्ति वा सः विना इति विषये केन सह कया सह नास्ति अस्तु अस्तु तर्हि विरमाम शान्तिमन्त्रं वदामः प्रश्नाः सन्ति चेत् ग्रूप् मध्ये प्रेषयतु अस्तु ॐ सर्वे
सर्वे भद्राणि पश्यन्तु मा ॐ शान्ति शान्ति शान्ति
यो नमः यो नमः धन्यवादः
धन्यवादः
धन्यवादः।